रावे पामा बृहतो महादयन्ति प्रवादेजागिरिनेवर्वेदानाः सोमस्येव मौजपदस्य भक्षो विभीद गोजाग्रिभिर्मह्य वत्सान् नमामि मे च न जीव एषा शिवा सखिभ्य उदमह्यमासीत् अक्षस्यामेकवरस्य हेतोरणव्रतामपजायामरोधम् द्वेष्टि श्वश्रूरपजायारो नद्धिननाथितो विन्दते मद्भिदारम् अश्वस्य भजरतोपस्यस्य राहम् विन्दामि कृतवस्य भोगम् अन्ये जायाम् परिवृतम् यस्य यस्याग्रे धद्वेदने वाज्याक्षः इदा माता भ्रातरये नमाघुर्न जानीमो न जाता बद्धमेतम् यदा दीध्येन दविडान्येभिः परागद्यो बहीजे सखिभ्यः ोक्ताशभ्रवोक्रतम् येमिदेषाम् यष्कृतम् जारिणीव सभामेदिव पृच्छमानो जेष्यामीति तन्वा आसोऽसु जानः अक्षासो अस्य विदीरन्तिकामम् प्रतिदीर्णे दधतः कृतानि अक्षरशीलम् कुशिनो नितो दिनो निकृत्वा नस्तपनास्तापयिष्णवाः कुमारदेष्णाजयत पुनर्गतावद्वा संवृत्ता स्थितवस्य भृगाः त्रिपञ्चाशक्रेणतिव्रतजेषाम् देवजीवसविता सत्यधर्मा उग्रस्य जिह्मन्यवेनामन्ते राजाजितेभ्यो न भयत्कृणोति नीचावर्तम् तमुपरिस्फुरम् च हस्तासो हस्तवन्तम् सहन्ते दिव्याङ्गारागिरिणेन्योक्ताः सीताः सन्तो हृदयम् निर्दहन्ति जायालप्यते कितवस्य हीना माता पुत्रस्य चरदक्वास्वित् ृणावाभिभ्यर्धनमिच्छमानोऽन्येषामस्तमुपलक्तमेति श्रियम् दृष्ट्वा च किलवन्ततापान्येषाम् जायाम् सुकृतम् च योनिम् पूर्वान्ने अस्वान्ये भद्रो स्वाग्नेरम् ते बृहणप्रपाद यो वस्येनानीर्मघतो गणस्य राजा व्रातस्य प्रथमो बभूव तस्मै गृणो विदधनारुणध्निदसाम् राजेस्त्वधृतम् वदामि अक्षयैर्मादीव्यकृषिमित्रेणस्वभित्तेरमस्व बहुमन्यमानः तत्र गावः किलपदत्र जाया तन्मे विचष्टे स विराजमर्यः मित्रम् क्रीणध्वम् खलु वृषता नो मानो घोरेण चलताभिधृष्णो निवो न मन्युर्विसतामराधिरन्यो बभ्रूणाम् प्रसीतौन्वस्तु